चित्रं पञ्चः केनः च यावेलः आदम च अव्वा देस्ता द्वयपुत्रः तेषु नामां केनः च एवेलः ईश्वरस्य एवेलस्य प्रीतिपात्रं वदनं न प्रीतिपात्रं केन्तु इदं वचनेन एबेल् केन् एका एकेषु प्रत्यर्थी निर्मितवान् एकः दिवसं सः एबेलेषु प्राणस्य हत्या करिष्यति केनोनि बहुत् ब्रह्माण्ड शापं ददति कः सा तस्य सहोदरा प्राणान्तका आसीत् तत् जनानां पापकार्येण निमग्नमासीत् तेषु पापकर्मेण ईश्वरस्य उग्रतः तेषु पापकार्याणि पश्ये कुपितनायः ईश्वराणां सर्वजनतेषु एकस्य एकः गरिष्ठसम्बन्धबान्धव्यां करिष्यति परन्तस्य पापानां सः सम्पूर्णमार्गेषु ईश्वरसमीपेशे सुदीर्घं सम्भवम्।